नमस्सर्वेभ्यः। अद्य प्रौढमनोरमायाः हल्सन्धिप्रकरणे तृतीयः पाठः, आगस्ट् मासस्य द्वितीयः दिनाङ्कः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ध्यायं ध्यायं परं ब्रह्म स्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्। प्रौढमनोरमायाः हल्सन्धिप्रकरणे स्मः। तत्र एतावता किमधीतम् इति किञ्चिदिव पुनरावर्तनं कुर्मः। स्तोष्टु नाष्टुः इति प्रौढमनोरमायां व्याख्यातं प्रथमं सूत्रं हल्सन्धिप्रकरणे। तत्र स्तोः इति शब्दस्य विषये किञ्चित् चिन्तनम्। सिद्धान्तस्य सः समाहारद्वन्द्वः सौत्रं पुंस्त्वम् इत्युच्यते। स्तु च तु च इत्युच्यते। यदि इतरेतरद्वन्द्वः तर्हि द्विवचनं स्यात्, यदि समाहारद्वन्द्वः तर्हि नपुंसकत्वं स्यात्। उभयं नास्ति, अत्र पुंस्त्वमस्ति एकवचनत्वं च अस्ति। कथम् इति प्रश्ने समाहारद्वन्द्व एव, अतः एकवचनं युज्यते। सौत्रं पुंस्त्वं, पुल्लिङ्गत्वं तु सूत्रत्वात् साधु। स्थान्यादेशयोः यथासङ्ख्यं न तु निमित्तकार्येण। स्तु इति स्थानी, श्चु इति आदेशः, तयोः यथासङ्ख्यम् अर्थात् सकारस्य षकारः, तकारस्य चकारः इत्यादि, न तु निमित्तकारिणोः। निमित्तम् अस्ति श्चु, पुनः कार्यी स्तु निमित्तं श्चु। सो द वन् विच् इस् बीङ्ग् रिप्लेस्ड् इस् स्तु, वेर् एस् द निमित्त द कण्डीशन् इस् असोसियेशन् वित् श्चु। सो वित् दट् निमित्त देर् इस् नो यथासङ्ख्या, यथासङ्ख्यं नास्ति। अर्थात् सकारस्य षकारेण योगेऽपि इष्टुत्वं भवति, चवर्गेण योगे अपि इष्टुत्वं भवति। तत्र ज्ञापकमस्ति शात् इति। शात् पवर्गस्य, शात् परस्य सवर्गस्य इष्टुत्वं निषिध्यते। यदि षकारात् षकारेण योगे सकारस्यैव इष्टुत्वं विधीयते, तर्हि तवर्गस्य इष्टुत्वनिषेधः व्यर्थः, न करणीयः। अतः तेनैव ज्ञायते निमित्तकारिणोः यथासङ्ख्यं नास्ति इति। तत्रैव दीक्षिताः वदन्ति स्तोः ष्टौ श्चुः इति सूत्रान्तरं कर्तुं शक्यते। श्चुना इति तृतीया उपयोक्तव्या इति नास्ति, सप्तम्यापि अर्थः सिद्ध्यति। तृतीयायाः किं प्रयोजनम्? श्चुना योगे, अर्थात् श्चोः परस्य स्तोः अपि इष्टुत्वं भवति, श्चौ परे अपि इष्टुत्वं भवति। सो बोत् सैड्स्, वेदर् प्रिसीडेड् आर् फालोड् बै श्चु, वि रिक्वेस्ट् श्चुत्वा। तदर्थमेव अत्र तृतीया उपयुज्यते। किन्तु सप्तम्याः उपयोगेनापि तादृशः अर्थः सिद्ध्यति इति वदति। कथम् इति चेत्, अस्मिन् सूत्रे तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषा नोपतिष्ठते। कथं ज्ञायते नोपतिष्ठते इति? शात् इति पुनः लिङ्गात्। कथं? शात् परस्य तवर्गस्य श्चुत्वं निषिध्यते। यदि श्चौ परे स्तोः श्चुत्वं, तर्हि शकारात् परस्य तवर्गस्य श्चुत्वप्राप्तिरेव नास्ति। यदि प्राप्तिर्नास्ति तर्हि निषेधः व्यर्थः। तेनैव ज्ञायते अस्मिन् सूत्रे तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषा नोपतिष्ठते इति। अतः स्तोश्चौश्चुः इति लाघवेनैव इष्टः अर्थः सिद्ध्यति इति वीक्षितानां मतम्। ष्टुनाष्टुः इत्यत्रापि तथैव, कार्ये निमित्तयोः यथासङ्ख्यं न। स्तोः ष्टुनाष्टुः इत्युच्यते ष्टुना योगे, सकारस्य षकारेण योगेऽपि इष्टुत्वं, टवर्गेण योगेऽपि इष्टुत्वं भवति। कथं ज्ञायते? तोषि इति निषेधः अस्ति, तवर्गात् षकारे परे ष्टुत्वं न भवति। यदि तवर्गस्य तत्तत् वर्णे, अर्थात् तकारस्य टकारे परे एव ष्टुत्वं, ठकारस्य ठकारे परे एव ष्टुत्वम् इति यदि यथासङ्ख्यमस्ति, तर्हि तवर्गस्य षकारे परे ष्टुत्वस्य प्राप्तिरेव नास्ति। अप्राप्तौ निषेधः कुतः? तेन ज्ञायते कार्यनिमित्तयोः यथासङ्ख्यं नास्ति इति। अत्रापि ष्टौष्टुः इति सूत्रेणैव इष्टं सिद्ध्यति। यतः नपदान्तात् टोरनाम् इति निषेधः अस्ति. पदान्तात् टवर्गात् परस्य स्तोः श्रुत्वं निषिध्यते. यदि तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषा उपतिष्ठते तर्हि टवर्गात् परस्य स्तोः श्रुत्वप्राप्तिः नास्ति, अप्राप्तौ निषेधः व्यर्थः. अतः उभयत्रापि तृतीया विभक्तेः प्रयोगः स्पष्टार्थमेव. सप्तमी विभक्त्या अपि कार्यं सिद्ध्यति इति वीक्षिताः. तदा प्रत्यये भाषायां नित्यम् इति वार्तिकम्. एरोनुनासिके अनुनासिको वा इत्यत्र प्रत्यये भाषायां नित्यं. लौकिकभाषायां प्रत्ययस्य अनुनासिके परे नित्यम् अनुनासिकसन्धिः इति सूत्रार्थः. अत्र प्राचां मते प्रत्यये मयटि नित्यम्, अर्थात् मयट् प्रत्यये परे एव नित्यम् अनुनासिकः इति उच्यते. चिन्मयं तन् इत्यादिषु तत्रैव नित्यम् अनुनासिकः. अन्यत्र प्रत्यये परेऽपि विकल्पेन यथा षड्नां षण्णाम् इति उच्यते. तत्तु दीक्षितैः निराक्रियते भाष्यविरुद्धत्वात्. षण्णाम् इति एकमेव रूपं, न तु षड्नाम् इति. ककुद्मन्तः इति कश्चन प्रयोगः दृश्यते महाभारते. ककुद् मतुप् प्रत्ययस्य मकारः. प्रत्यये भाषायां नित्यमित्यनेन नित्यमनुनासिकः स्यात्, ककुन्मन्तः इति स्यात्. कथं ककुद्मन्तः इति प्रयुज्यते इति प्रश्नः. कौमुद्यां तस्य समाधानमुच्यते यवादिगणे पाठात्. नमतोर्युवो अयवादिभ्यः इत्युच्यते. तत्र मतुप्रकरणे यवादिगणे ककुद् इति दकारान्तस्य पाठः श्रूयते. अतः तस्य निपातनात्, दकारान्तस्य निपातनात् सकारान्त एव उपयुज्यते इति कौमुद्यां समाहितम्. अत्र तु द्वितीयमपि समाधानं वदन्ति वीक्षिताः. यचिभं तसौ मत्वर्थे इति भसंज्ञाविधायकसूत्रे स्तः. तत्र संहितया पाठे यचिभन्तसौ इति अस्ति. तत्र दकारात् पूर्वं दकारः अपि प्रश्लिष्यते इति समाधानम्. भं भ न द तसौ इत्यस्ति. तस्य खरिच इत्यनेन चर्त्वं भवति, झरोझरि सवर्णे इत्यनेन लोपः. अतः सः दकारः न श्रूयते किन्तु विद्यते. तेन किं प्रयोजनम्? दकारान्तस्य मत्वर्थप्रत्यये परे भसंज्ञा विधीयते. भसंज्ञा पदसंज्ञायाः अपवादिका. भसंज्ञा इस् आल्वेज़ एन एक्सेप्शन्. दे फाल् अण्डर् आकडारात् एका संज्ञा. सो भसंज्ञा इस् एन एक्सेप्शन् टु पदसंज्ञा. भसंज्ञा विद्यते चेत् पदसंज्ञा नास्ति. अत्र प्रत्यये भाषायां नित्यमिति यरोनुनासिके अनुनासिको वा इति सूत्रे तत्र सर्वत्र पदे इति अनुवर्तते. पदान्तस्यैव अनुनासिकत्वं विधीयते. अतः भसंज्ञया पदसंज्ञा बाध्यते इत्यतः अत्र अनुनासिकप्राप्तिः नास्ति इत्यपि समाधातुं शक्यते. सो दट् इस् अनदर् सल्यूशन् फार् द सेम् प्राब्लम्. वै देर् इस् नो अनुनासिक इन् ककुद्मन्तः. अग्रिमं सूत्रम् पठितमासीत् उनस्थास्तम्भोः पूर्वस्य इति. एकदेशे स्वरितत्वप्रतिज्ञानम् इत्यस्ति. पूर्वसूत्रमस्ति अनुस्वारस्य यि परसवर्णः. तत्र परसवर्णः इति एकमेव पदम्. प्रायेण अनुवृत्तौ पूर्णं पदमेव स्वीक्रियते. अतः परसवर्णः इति पूर्णस्य पदस्य अनुवृत्तिः स्यात्. किन्तु अत्र पूर्वस्य इति निर्दिश्यते इति तत्सामर्थ्यात् केवलं सवर्णम् इति पदैकदेशः. एकदेशः नाम भागः. सो वी आर् टेकिङ्ग् ओन्लि अ पार्ट् आफ् द अनुवृत्ति. दट् इस् ओन्लि अ पार्ट् आफ् द वर्ड् एस् अनुवृत्ति. ओन्लि द सवर्ण. पूर्वस्य सवर्णः, पूर्वसवर्णः इत्यन्वयः क्रियते. एकदेशे स्वरितत्वप्रतिज्ञानम् इति उच्यते. क्वचिदाश्रीयते. सो इट् इस् यूस्ड्, ऐ मीन् इट् इस् एक्सेप्टेड् इन् सम् केसेस् वेर् देर् इस् अ प्रमाण. because if say purvasya parasavarnaha, it does not make sense. It has to be either purvasya savarnaha or parasya savarnaha. So because of purvasya, we take only savarna and say it as purvasya savarnaha. Kharicha iti sutram, tatra tachivaha iti udaharanam diyate. Tad shivaha iti sthite. Toshchunashchuhu ityanena taji shivaha. Toshchunashchuhu ityanena shchutve. Sorry. Kharicha ityanena chatve. Adavshchutvam. Tataha kharicha iti chartvam. Tachi shivaha. Tataha shashchoti ityanena chartvam. Tad shivaha iti rupam siddhante. Because chutva is 8440. Chartva is 8455. And Shashchoti is 8463, I think. So, in Tripadi, we always go by the order of the sutras. Because the latter sutras are Asiddha, you cannot apply a latter sutra first. Okay. But, in the Prakriya Kaumudi, he starts from Takaranta, and then he says first Jashtva. Salam Jashvante iti Jashtvam Tad Shivaha. Tataha kharicha iti chartvam punaha tat shivaha. Tataha soshchunashchuhu ityanena shchutvam. Tat shivaha anantaram shashchoti iti tena ucchyate. Tattu dikshitehi niyakriyate. Himartham adau tat shabdaha nastyeva. You cannot have tat initially because the word is anyway tad. Okay, you cannot do chartva. And saying that you apply chartva and then shchutva is wrong. Because Chartva 8455 is Asiddha to Shchutva 8440. Shchutvam prati Chartvasya Asiddhatvat Adav Chartvam Tatashchutvam iti Katham iti Dikshitaha. Tatra Vyakhyakarena Kena Chiduchyate Adav Avasanamasti. You just take the word Tad. Tada Vavasane Itinena Chartvam Bhavati Tad. Tataha Shiva Shabdasya Yojane Punaha jashtvam chartvam ityadi uchyate tadapi asamichinameva yatohi vavasane iti yat chartvam asti vaikalpikam chartvam tattu jashtvasya apavadaha. It is an apavada to jashtva. Okay, so there will be jashtva. Jashtvasya apavadena vikalpena chartvam vidhiyate pakshe jashtvam api bhavati iti sthitihi tatha sati adau vavasane iti krutva tataha jalam jashonte ityasya punapravartihi iti nasti kincha shiva shabdasya yojanena iva jalam jashonte iti pravartate iti kimartham jalam jashonte ityasya tu anya nimittam nasti. It does not require a different word to operate. It operates even at the end of just words. If you just have vak, it becomes vag by jalam jashonte. It does not require any other nimitta. So even when it is just tat, we can have both tad and tat. Ataha shiva shabdena yoge jastvam tatashchartvam ityapi asadhureva. Ekam tu asti tanoti iti tan iti kribantam kriyate. Tanoti ityarthe tan sanuvistare iti dhatuhu tatra kvipu sarvapahari lopaha tan ityasti tatra jastve krute tad iti bhavati tataha tattu siddhyati adau jashtvam iti kathanchit samarthayitum shakyate using some tanoti iti tan. That's all a very roundabout way, but still you can somehow justify saying jashtva occurs first. But saying chartvam tataha shchutvam iti to sarvatha na sadhvi, because chartva is asiddha to shchutva. Now, Mune ityatra yoga vibhagat atra asiddhatvam eva nasti iti vaktum shakyate yoga vibhagam ashritya kintu yoga vibhagaha agatika gati. When you easily have the proper way of deriving the form, why resort to yoga vibhaga and such circuitous route? Therefore, it is wrong to apply chartva first. The order is chutva, chartva, chatva. Yatha Sankhya Manudesha Samanam iti Agrivam Sutram Tatra Sutrartha Diyate Sama Sambandhi Vidhi Yatha Sankhyam Bodhya. सूत्रे किमस्ति यथा संख्यम अनुदेशः अनुदेशः नाम आदेशः यथा संख्यम भवति यत्र स्थान्यादेशयोः यथा संख्यम स्थान्यादेशयोः समसंख्यत्वम् अस्ति तत्र यथा संख्यम भवति इति सूत्रात् प्रतीयते किन्तु सूत्रार्थे दीयते समसंबंधी विधिः न तु केवलम् आदेशः यत्र निमित्तकार्यणोः यथा संख्यम् अस्ति क्षम्यताम् यत्र निमित्तकार्यणोः समसंख्यत्वम् अस्ति तत्रापि यथा संख्यम् भवितुम् अर्हति समूल अकृत जीवेषु हन् कृञ् ग्रहः इत्यस्ति तत्र हन् कृञ् ग्रहः इति स्थानी अथवा कार्यी निमित्तमस्ति समूल अकृत जीव तयोरपि समसंख्यत्वे यथा संख्यम् भवितुम् अर्हति अत एव समसंबंधी विधिः इति उच्यते न तु समसंख्यकः आदेशः इति इट्स नॉट जस्ट वेर द आदेश एंड स्थानी आर समसंख्या वेर एवर वेदर इट इज कार्य एंड निमित्त वॉट एवर इफ देर इज इक्वल नंबर्स वी कैन हैव यथा संख्या गुणोः कुक्टुक्षरि इति अग्रिमं सूत्रमासीत् तत्र कुक्टुकोः पूर्वान्तत्वे प्रयोजनम् कुक्टुक् इति कित् क्रियते यदि कित् भवति तर्हि आद्यन्तौ टकितौ इत्यनेन अन्तावयवः भवति सो इट् इस् एडेड् एस् द अन्त आफ् द प्रीवियस् ओके सो सिन्स् दिस् इस् आल् वर्णस् वेदर् वी एड् इट् एट् द एण्ड् आफ् प्रीवियस् आर् एट् द बिगिनिङ्ग् आफ् द लेटर् वन् the position will be the same you're doing it between two words so whether we add at the end of the first word or at the beginning of the second word that is if you make it tit and add it at the beginning of the second word the positioning would be the same right? I mean it would still be in between the two words so why particularly purvan tatva iti prashne tatra diyate praksaye iti udaharanam tatra praksaye iti यदि ककारः परस्य आदिः भवति तर्हि सकारस्य षत्वनिषेधः न सिद्ध्यति सात् पदाद्योः इत्यनेन पदादेः सकारस्य षत्वं निषिध्यते इदानीं प्राङ् इत्यस्ति तस्यैव अन्तावयवः ककारः प्राङ्क् साये इति भिन्नं पदं तत्र पदस्य आदौ सकारः अस्ति तस्य षत्वं निषिध्यते यदि परस्य आदिः क्रियते ककारः If k is given as, I mean, the cook is given as kut, that is a tit, and it is added to the beginning of saye, then kakara will be padasya adihi. Sakarasya padadittvam na bhavati, tena shatva nishedha na siddhyati. You cannot prevent shatva. We would have to convert sakara to shakara. Therefore, cook is given as a kit, that is purvantatva. Similarly, in tuk, If we have it as Purvanta, na padanta toranam ityanena shtutva nishedha bhavati. Padanta tavargat parasya stoho shtutvam na bhavati. Sugant saye ityasti. Sugant ityatra padasya ante tavargaha takaraha. Tasmat parasya sakarasya shtutvam na bhavati. Yadyayam paradisyat. If this were given as the adi for the para, then there would have been shtutva. Because padante tavargaha nasti. Sugana till saye iti padam. So there, tavarga is at the beginning of that pada and following it, the sakara should be converted to shakara by shtutva. So to prevent that, both kuk and tuk have been made to be purvanta and not paradi. Dasidhut iti sutram. दात् परस्य स्वस्य धुडागमः इति उच्यते दः इति पञ्चमी सि इति सप्तमी उभयनिर्देशे पञ्चमी निर्देशो बलीयान् परत्वात् तस्मिन् इति निर्दिष्टे पूर्वस्य तस्माद् इत्युत्तरस्य इति परिभाषाद्वयम् तत्र परत्वात् उभयनिर्देशे यत्र सप्तमी अप्यस्ति पञ्चमी अप्यस्ति षष्ठी नास्ति तत्र पञ्चमी निर्देशस्य बलवत्तम् Which means Panchami is treated as Panchami. Saptami is converted into Shashti. Atayeva Dath Parasya Sasya. See, it is the sthane Sasya Dhudagamaha iti Uchyate. Tathayeva Shatsantaha ityatra Dhritvadikam Krutva Katham Dvatrimshad Rupani Siddhyanti iti. Sakarasya Dhritvam Tathayeva నకారస్య ద్విత్వం విసర్గస్య ద్విత్వం ఇత్యాది కృత్వా ద్వాత్రింశత్ రూపాణి సాధితాని. ధుటః పరాదిత్వ ప్రయోజనం. ధుట్ ఇది ఆగమః క్రియతే, కిమర్థం ధుక్ ఇత్యేవ న క్రియేత, వై నాట్ యాడెడ్ టు ద ఎండ్ ఆఫ్ ద ప్రీవియస్, జస్ట్ రైట్ దట్ వి ఆర్ గోయింగ్ బై ద కిత్ సిరీస్ లైక్ కుక్ టుక్, సో దిస్ కుడ్ హావ్ బీన్ ధుక్ ఆర్ ఈవెన్ తుక్, ఓకే, సో వై నాట్ డూ ఇట్ ఇస్ ఎ క్వశ్చన్. సో టూ క్వశ్చన్స్, వై నాట్ మేక్ ఇట్ ధుక్, దట్ ఈస్ మేక్ ఇట్ పూర్వాంత ఇన్స్టెడ్ ఆఫ్ పరాది, అండ్ వై నాట్ మేక్ ఇట్ తుక్, ద నెక్స్ట్ సూత్ర విల్ సే షీ తుక్, సో దిస్ కెన్ ఆల్సో బి తుక్, బికాస్ సకారే పరే ధృడాగమః, బికాస్ ఆఫ్ ద సకార ధకార ఇస్ ఆల్వేస్ కన్వర్టెడ్ టు తకార బై ఖరిచ, ఇట్ విల్ ఆల్వేస్ అప్లై. సో టు అవాయిడ్ ద అడిషనల్ స్టెప్ తకార ఇట్ సెల్ఫ్ క్యాన్ బి గివన్ రైట్ యాజ్ తుగాగమ ఇస్ ద క్వశ్చన్. హి సేస్ దట్ విల్ నాట్ డూ, బికాస్ ఇఫ్ డైరెక్ట్లీ తకార ఇస్ గివన్ చయోద్వితీయాశ్చరి పోష్కర సాధేరితి వాచ్యం ఇది వార్తికేన ద్వితీయాదేశస్య ప్రసక్తి భవతి. చయః ద చై వర్ణ దట్ ఇస్ తకార విల్ హ్యావ్ టు బి కన్వర్టెడ్ టు తకార ఆప్షనలీ బై ద వార్తిక. ఇఫ్ వి డూ ధుట్ అండ్ దెన్ బ్రింగ్ ఇన్ తకార బై చర్త్వ, వార్తికం ప్రతి చర్త్వస్య అసిద్ధత్వాత్ తద్వార్తికం న ప్రవర్తతే, సో దట్ వార్తిక విల్ నాట్ ఆపరేట్ బికాస్ చర్త్వ ఇస్ అసిద్ధ. దట్ ఇస్ వై హీ ఇనిషియలీ గివ్స్ ధకార విచ్ ఇస్ కన్వర్టెడ్ టు తకార బై చర్త్వ. అండ్ there was a prayojana for the paraditva. Just a second. Forgot what it was. Dhutaha paraditvam napadandattoranam iti shtutva nishedhartham. So there is a na padanta toranam shat santaha shat ityatra tavargah asti tasmat dhut iti takara kriyate shat tu santaha. So the takara is not converted by shtutva because na padanta toranam padante tavargah asti tasmat parasya takarasya shtutvam nishidhyate atah paraditvam kritam. If it were purvanta, yadi tugiva dhuk krutaha purvantaha tarhi padante takarah nasti ataha napadanta toranam iti nishedhaha na pravartate shat santaha iti takarah eva shruyeta. You cannot hear the takara because it would have to be converted to takara vaishtutva. Tadeva dhutaha paraditve prayojanam. Tut iti pakshetu tadeva షట్ సంతః ఇత్యత్ర షుత్వం స్యాత్ అతఏవ న క్రియతే. షీతుక్ ఇది అగ్రిమం సూత్రం. అత్ర తు చరితార్థాయాం పంచమ్యాం సప్తమీ నిర్దేశో బలీయాన్. పూర్వత కిముక్తం ఉభయ నిర్దేశే పంచమీ నిర్దేశ బలీయాన్. దస్సి ధుట్ నశ్చ ఇది అగ్రిమం సూత్రం. తత్రాపి నః నకారాత్ పరస్య సకారస్య ధుడాగమః ఇది క్రియతే. షి తుక్ ఇత్యత్ర నహ ఇతి అనువర్తతే. నహ ఇతి పంచమీ, షి ఇతి సప్తమీ. అత్రాపి యది ఉభయ నిర్దేశే పంచమీ నిర్దేశ బలీయాన్ తర్హి నకారాత్ పరస్య షకారస్య తుక్ ఇతి వక్తవ్యం. కింతు కిముచ్యతే షకారే పరే నకారస్య తుగాగమః విధీయతే. కథం ఇతి చేత చరితార్థాయాం పంచమ్యాం పూర్వసూత్రే నశ్చ ఇత్యత్ర పంచమ్యర్థః చరితార్థః. ద సెన్స్ ఆఫ్ పంచమీ దట్ ఇస్ తస్మాద్ ఇత్యుత్తరస్య హాస్ బీన్ యూటిలైజ్డ్ ఇన్ ద ప్రీవియస్ సూత్ర, వెరాస్ ద సెన్స్ ఆఫ్ సప్తమీ విచ్ ఇస్ యూజ్డ్ ఇన్ దిస్ సూత్ర ఇస్ అచరితార్థ. Ataha charitarthayam panchamyam, when the sense of panchami has already found its application, saptami yatesha baliyan, the saptami has not yet been utilized, so its meaning will take over. Shakare pare nakarasya tugagamaha ityarthaha kriyate. So atra tuk kriyate. Atra yadi purva sutra atra dhut ityeva kriyata. So again, why not take over dhut? We already have dhut. So we can continue with it. What will happen? So again, there will be a problem in sanshambhu. Nanu prakritaha dhudeva astu kim tuka maivam shashchoti ityasyahi padanta jayah parasya shasyachaha iti kriyate. San shambhuhu ityasti san t shambhuhu iti nakarasya tuk agamaha san t shambhuhu padante jayvarnaha asti takaraha tasmat parasya shasyachaha ataha san shambhuhu iti siddhyati. Yadi dhut paradihi, if you continue dhut from the previous case, then it would have been san is one word and t shambhuhu. Atratu padanta jaya paratvam nasti shasya ataha chatvam nasyat. Virapshan ityatra yathasti pakarat parasya shakarasya chutvam nakriyate evam atra chatvam nakriyate evam atra api chatvam nasyat. Ataya eva purvantaha tuk krataha. Nanu evam kurvan chete ityatra padantasya iti natvanishedho nasyat. Now on the other hand, if tuk is added to the end of the earlier word, you have kurvan shete, kurvan t shete iti bhavati. Tatra adau takarasya chutvam tataha nakarasya apishchutve kurvan chete iti rupam. Atra nakaraha padante asti chet natvanishedha siddhyati. Kurvan repha asti rashabhyam nona samana pade atkupvangam yavayeti ityanena natvam praptnoti na padantasya padantasya natvam na bhavati iti nivariyate. Idanim tu padantatvam nasti. If you are adding another letter to the padanta, nakara is no longer padanta. Tatha sati natva nishedha nasyat iti apatihi. Tatrochete karyakala pakshe bahirangatvena tukaha asiddhatvat. Asiddham bahirangam antarange. Tugagamaha bahirangaha. Because it depends on shakara, which is external. The natva is internal. It depends only on the repha within the same word. Antarangatvat. Antarangam natvam athama natva nishedham prati bahirangaha tugagamaha asiddhaha iti karyakala pakshe samadhanam. Yathodesha pakshe tu stohushchuna iti yogaha vibhajyate. Stohushchuna ashtuhu ityatra yoga vibhagaha achriyate. Stohushchuna ityatra na iti anuvartate. Nabhabhupu ityataha na iti anuvartate. Naha rashabhyam nonaha ityataha naha ityapi anuvartate. Stohushchuna yoga natvam nasyat. Arthat nakarasya shchuna yoga. In aso, when it is associated with chavarga or shakara, there is no natva. So there is natva nishedha is achieved by yoga vibhaga. Tataha shchuhu nakara artham idam sakara grahanam varga grahanam cha uttara artham. So stoho shchuna ityatra nakarasya eva natva nishedha. Tataha shchuhu. The next sutra is chuhu, we take stoho shchuna as anuvratti. Stoho shchuna shchuhu ityasyatu, sayeva artha. The same meaning as what we take now for stoho shchuna shchuhu. Okay, this is the thing. In yathodesha paksha, we have to resort to yoga vibhaga. In karyakala paksha, we can resolve this using bahiranga paribhasha. Evam nashchayati sutre kurvantsidati ityatra padantasya iti natva pratishedha dhutaha paraditve prayojanam iti pracham granthopi yathodesha pakshe bodhyah. So dikshita istu dhudagamasya paraditva prayojanam kimuchyate napadantatonam iti shtutva nishedha iti uchyate pracham granthe prakriya kaumudyam natva pratishedha prayojanam iti uktam. पदान्ते नकारः अस्ति पदान्तस्य इति णत्वप्रतिषेधः धुटापराधित्वे प्रयोजनम् तदपि यथोद्देशपक्षे एव सिद्ध्यति कार्यपालकालपक्षे तु बहिरङ्गत्वादेव सिद्ध्यति यथोद्देशपक्षे धुटः प्रयोजनं भवति पदान्तस्य इति णत्वप्रतिषेधः So it is a pakshika. It is not completely wrong. The prayojana is not completely wrong, but it is pakshika. Because the bahiranga paribhasha operates only in karyakala paksha. In yathodesha paksha, this will hold good. So that is, I think that's where we stopped. Any questions? Okay, there is a question. Is it correct, Sandhi, for Dasi Dhut to be present as Dasi Dhug when followed by Achar Vakara? No, it is not. Have I made that mistake anyway? Because Dhut, just me Dhut ityeva bhavati, atra kutrasya kimapi nimittam nasti. Okay, so if it's somewhere else, no, I mean, there is no nimitta for kutva here. Dhut becomes dhud. Just see dhud, if there is akara following, it will be dhudeva, like dhudeva, it will be dakara, jashtva, and it cannot be. Sagriram Sutram asti, namo hraswadati, namun nityam. ngam pratyaharah namah ngamut iti uchyate ubhayatra ngam nyamanganam ngakara nakara nakaranam ngam iti pratyaharah samnyayam cha kritam tikam samarthyat samnyibhihi sambadhyate ngamut ityatra ngam iti pratyaharate tikam takaranabandhah yojyate so the anubandha is on the samnya which is ngam okay. samnyayam kritam tikam samarthyat samyayam tittvasya prayojanam nasti because you are not going to use nam I mean the particle nam as it is anywhere you are only taking gam to mean na 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 samya sanginam pratyaya nivartate sarvatra yatra samya shabdah asti tatra sanginam pratyaya nivartate sakshat samya shabdah nopayujyate sichi vriddhihi ityukte akara ikara aukarah eva adeshatvena kriyante natu vriddhi shabdah एवं ngamut इत्युक्ते ngakara nakara nakara एव स्वीक्रियन्ते न तु ngam इति संज्ञा तत्र कृतं तित्वं व्यर्थं सो द संज्ञा बीइंग टित इज व्यर्थ व्यर्थं सत् सामर्थ्यात् संज्ञभिः द टित दैट इज टकार इज एसोसिएटेड विथ ईच ऑफ द संज्ञीस दैट इज ngut nut एंड nut that is what we take it as even though he gives the tit together on the pratyahara we associate it with each of the letters so trayaha atra agamaha nut nut tatha nut iti samnyayam chatrutam tittvam samarthyat samnyabhis sambadhyate tena yatha sankhyam arthat namaha agamaha vidhiyate ataha ng n n ityadesham trayanam varnanam kramat nut nut नुटः प्रवर्तन्ते एते त्रयः आगमाः भवन्ति नित्यग्रहणं विस्पष्टार्थम् नित्यम् इत्युच्यते नित्यम् आगमः विकल्पः न इति सूचयितुं नित्यशब्दग्रहणं न कर्तव्यम् इति किमर्थम् पूर्वत्र हेमपरे वा इत्यस्ति पूर्वत्र उक्तानि सर्वाणि वैकल्पिकानि सूत्राणि मयौन्यो वो वा इति पुनः विकल्पः अस्ति अग्रे सो द नेक्स्ट सूत्र इज आल्सो विकल्प हेमपरे वा इत्यतः पूर्वत्रापि विकल्पानुवृत्तिः अस्ति विकल्पद्वयस्य मध्ये पाठात् सो वट् एवर इज टोल्ड बिट्वीन टू विकल्पस इज नित्य बिकॉज अदरवाइज इट वुड हैव बीन विकल्प टेकन अंडर द विकल्प पक्ष सो सिंस इट वाज बीइंग गिवन बिट्वीन टू विकल्पस सो वट एवर इज इन बिट्वीन इज ऑल can be assumed to be nitya atah punah nityam iti vaktavyam nasti So for example, jhalam jashonte, it comes between two vikalpas. That is also nitya, it is not a vikalpa. So between two vikalpas, whatever is present is by default a nitya karya. Therefore, nityam iti spashtartham eva. Suganishaha iti udaharanam. Shobhanam ganayati ityarthe. Su gana iti akarantaha dhatuhu, adantaha dhatuhu. Tasmat nich pratyaha, satyapapasharupa ityarina churadibhyo nich. So churadi gane patitatvat nich pratyaha. Atolopaha ityanena gana ityatrakarasilope sugarnu i ityasti. Tataha kvip pratyaha anyebhyopi drishyate nijantate. Neraniti iti nehe luk. Sugan v vera pratyasya ityanena vakarasilopaha sugan iti pratipadikam. Sugan ishaha iti nyallopau nasthanivat. अत्र प्रश्नः नीलोपः अस्ति नेरनेटि इत्यनेन इकारलोपः अथवा अतोलोपः इत्यनेन अकारस्य लोपः कृतः तस्य स्थानिवद्भावः भवति वा इति अतः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावे कृते परनिमित्तः अजादेशः अर्थात् अकारस्य लोपः परनिमित्तः अथवा इकारस्य लोपः सोऽपि परनिमित्तः स्थानिवद्भवति स्थानीभूतादतः पूर्वत्वेन दृष्टस्य नाम नकारस्य. सो द नकार इज बिफोर अकार एंड इज बिफोर इकार. स्थानीभूतादतः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये. अतः नकारस्य नुडागमे कर्तव्ये स्थानिवद्भावः भवति वा इति प्रश्नः. यल्लोपौ न स्थानिवत् पूर्वत्रासिद्धे तन्निषेधात्. पूर्वत्रासिद्धे न स्थानिवत् इत्यस्ति. अतः असिद्धकाण्डे स्थानिवद्भावः न प्रवर्तते. ममुटः पराधित्वं कुर्वन्नास्ते इत्यत्र नत्वनिषेधार्थम्. सो अत्रापि ङुट् नुट् नुट् इति टित्वेन उच्यते. तित्वस्य प्रयोजनं पराधित्वं. किं प्रयोजनं पराधित्वे? वै नाट् गिव् इट् अस् कित् विच् कुड् बि पूर्वान्त. सो वेदर् यु एड् इट् I mean, as I said, after the previous one or before the next one, it is the same. Kurvan aste ityatra natva nishedhartham. Kurvan aste ityasti. Tatra natvam varayitum. To prevent natva by padantasya. Yadi nakaraha padante asti kurvan iti, tada padantasya ityanena natvam nishidhyate. Yadi purvantaha kriyate. If the agama were purvanta, there is kurvan nu. Okay. So dvitiya nakarasya padantasya etena natvanishedha siddhyati prathama nakarasya tu natvam prapnoti tadvaranartham paraditvam kritam. Atayeva namo hasvadachi dve iti nasutri. So that is why he did not even just give dvitva. He gives namutasya agama nakarasya nakaragama uchyate. Tatra tu Namo Hasvadati Dve. He could have easily doubled the Nakara, Nakara or Nakara. I mean the Rupa would have been the same. San Achyutaha, Sanun Achyutaha, San Achyutaha. Tareva Siddhyati Laghavamasti. Instead of saying Namut, to say Dve is Laghu. Kintu Tatha Sati Punaha Natva Pratishedha Nasyat. One of the, I mean, there should have been Natva for Nakara. You cannot prevent Natva. That is why Atayeva, Namo Hasvadachi Dve iti na asutri, Panimina. Param Natvam Prati, Purvasya Siddhataya, Natva Pattehe iti Pranchaha. So, the Natva, which is Parasutra, Natva is Rashabhyam Nona Samana Pade, which occurs in the fourth pada, right? 8-4. Whereas the Namoharaswadati is 8-2. Ataha, Etastu Siddham, Param Natvam Prati, Nama Atkupangam Yavayepi, iti Natva Vidhayaka Sutram Prati, Purvasya, Namoharaswadati, iti Sutrasya Siddhataya. Because it is Siddha, it knows that there is a Nakara has arrived, a new Nakara. Therefore, Natva Pattihi iti Pranchaha. Yattu Ahuhu, Bahiranga Paribhashaya Gatarthatvad Ubhayamapi Asangatam iti. So now the same argument. We are finding Bahiranga Paribhasha very frequently. Satrapi Namudagamaha Bahirangaha Anattvam Antarangam. Just like we saw in the previous case, the Kurvan Shete. Okay. Satrapi Thadrishtam. The Agama is Bahiranga because it depends on the external letter. Namo Haraswad Achi. Ataha apeksha asti natvam to antarangam tasmineva pade vidyamanam nimittam ashtya pravartate ataha agamasya bahirangatvad asiddhatvam asiddhatvat atra apatihi nasti iti cheta tadapi pakshikam. So obviously we know that bahiranga paribhasha operates in the tripadi only in karyakala paksha. Yadi karyakala paksha ashriyate tarhi tripadyam bahiranga paribhasha pravartate. Yathodesha pakshetu tripadyam paribhashanam pravruttihi na bhavati. Ataha tadapi pakshikam. Bahiranga paribhasha pakshiki. Rajyaha ityatraiva. Yathodeshe traipadike antaranga paribhasha virahasya uktatvena. We have rajya, rajyaha or rajya. Wherever you do. Rajan as ityasti. Tatra allopoonaha ityanena akarasya lopaha kriyate. Rajan as. Tataha stoshchunashtuhu ityanena akarasya shtutve. Rajan as. Atrapi asiddham bahirangam antarange. Tatra stoshchunashtuhu iti antarangam. Because it depends on within the word. The nimitta is within the word Rajan. There is Jakara, there is Nakara. Whereas Alloponaha is Bahiranga. It depends on the Pratyaya. Okay. Only if there is Bhasamya, we have Alloponaha. So Alloponaha iti Bahirangam. Antarange Shchutve Kartavye Bahirangaha Allopaha Asiddhaha. Allopa is Asiddha. If Allopa is Asiddha, we cannot apply Shchutva. Right? So what do we do there? We resort to Yathodesha Paksha. Yathodesha Pakshe Asiddham Bahiranga Mantarange iti Paribhasha Tripadyam na pravartate. Ataha Bahirangasyapi Allopasya Asiddhatvam Nasti Shchutvam Bhavati. So like we do in Rajyaha, Yathodesha Pakshe Traipadike Antaranga Paribhasha Virahasya Uktatvena. So for that everybody has to accept that the Yathodesha Paribhasha does not apply in the Tripadi. Ataha Yathodesha Pakshe Natvanishedhartham Paradittvam Upayujyate Karyakala Pakshetu Bahiranga Paribhashaya Etat Siddhyati. Rajyaha Ityatra Iva Yathodeshe Traipadike Antaranga Paribhasha Virahasya Uktatvena Pracham Granthasya Saushtavat. So that is also correct. The Natvam prati purvasya siddhataya natvapattehe iti yaduktam tadapi sadhveva. Kathamanyatha dviyam priyam cha svayameva uktam. So again going back to Suddhipasya. If the yanadesha is asiddha, yanadeshasya asiddhatve dvittam eva nasyat. Yadi dvittam nasti tarhi suddhiyu yu upasya dviyam priyam ityadi na siddhyati. Ataha tatrapi yathodesha pakshaha eva ashritaha. Yathodesha pakshe bahiranga paribhasha na pravartate ityapi angikritam. So the same arguments which are being repeated over the text. Nanu paramadandinam ityadav antarvarti vibhaktya padatvat nutsyat iti chetna. Paramadandinam ityasti paramau chatau dandinau iti samasaha. Parama au dandin au iti alaukikam vigrahavakyam. In samasa we always have the alaukika vigrahavakya where we have the vibhakti pratyayas. Parama au dandin au. Tataha supodhatu pratiparikayoho ityanena vibhaktyoho lubhavati. The vibhaktis are deleted by supodhatu pratiparikayoho. So you have parama dandin. Tataha samasta padat punaha subutpatihi iti siddhanta. Now the vibhaktis which have been deleted. Right? So pratyaya lope pratyaya lakshanam. So pratyaya lupte api pratyaya lakshanam bhavati. Tatha sati parama ityapi padam dandin ityapi padam. So ఉభయమపి పదం ఇది స్వీక్రియతే. పదత్వాత్ అంతర్వర్తి విభక్త్య, సమస్త పదస్య అంత అవయవేషు పదత్వమస్తి. పదత్వాత్ నుట్ స్యాత్ దండిన్ ఇది పదం. పదాంతే విద్యమానస్య నకారస్య అతిపరే ఔకారే పరే నుడాగమః స్యాత్ ఇది ఆపత్తి. నను పరమదండినౌ ఇత్యాదౌ అంతర్వర్తి విభక్త్యా పదత్వాత్ నుట్ స్యాత్ ఇది చేత్ న. ఉత్తర పదత్వే చ అపదాది విధౌ ఇది ప్రత్యయ లక్షణ ప్రతిషేధాత్. సేస్ ప్రత్యయ లక్షణ ఇస్ ప్రివెంటెడ్ హియర్ బికాస్ ఉత్తర పదత్వే, ఫార్ ద ఉత్తర పద వి డు నాట్ యాక్సెప్ట్ పదత్వ అపదాది విధౌ. ఓన్లీ ఇన్ అ పదాది విధి ఇట్ ఇస్ ట్రీటెడ్ యాజ్ అ పద. ఫర్ ఆల్ అదర్స్ ద ఉత్తర పద ఇస్ నాట్ ట్రీటెడ్ యాజ్ అ పద. ఇస్ అ స్టాండర్డ్ రూల్ ఇన్ అ సమాస. ద పూర్వ పద ఇస్ ఆల్వేస్ ట్రీటెడ్ యాజ్ అ పద బై ద అంతర్వర్తి విభక్తి. దట్ ఇస్ ఇఫ్ యూ హ్యావ్ సంథింగ్ లైక్ రాజ్ఞః అశ్వః ఆర్ రాజ్ఞః దూతః. రాజన్ ఇస్ ద ప్రాతిపదిక. రాజన్ నస్ అశ్వ సు. సో రిమూవ్ ద విభక్తి ప్రత్యయ. ఇట్ ఇస్ రాజన్ అశ్వ. తత్ర నలోపః ప్రాతిపదికాంతస్య ఇత్యనేన నకారస్య లోపః క్రియతే. ప్రాతిపదికం యత్ పదం తదంతస్య నకారస్య లోపః స్యాత్ ఇది సూత్రార్థః. దేర్ ద పూర్వ పద ఈస్ ట్రీటెడ్ యాజ్ అ పద బికాస్ ఆఫ్ ద విభక్తి అంతర్వర్తి విభక్తి. బట్ ద ఉత్తర పద ఇస్ నాట్ ట్రీటెడ్ యాజ్ అ పద ఎక్సెప్ట్ ఇన్ కేసెస్ ఆఫ్ పదాది విధి. అత ఉత్తర పదస్య పదత్వం నాస్తి అనయా పరిభాషయ. దిస్ ఇస్ అ పరిభాష. ఉత్తర పదత్వే చ అపదాది విధౌ. ఉత్తర పదత్వే చ అపదాది విధౌ ఇది ప్రత్యయ లక్షణ ప్రతిషేధాత్. అతయేవ పరమవాచౌ పరమగోదుహౌ పరమలిహౌ ఇత్యాదౌ కుత్వ ఘత్వ ఢత్వాదీని న. That is why in the Uttarapada, we never see karyas which depend on a pada. Say for example, you have paramavachi au. Tatra, chofkuhu ityanena kutvam nabhavati. Padante, dhali padante, savargasya kutvam vidhiyate. Yatha, anyata kutvapi, vakshabdha yatrasti, tatra chofkuhu ityanena kutvam vidhiyate. వాచుభ్యాం ఇస్తే వాక్భ్యాం వాగ్భ్యాం ఇత్యాది అత్ర నభవతి. యతః ఉత్తర పదస్య పదత్వం నాస్తి. పరమ గోదుహౌ దుహ్ ధుక్ ఇతి భవతి. తత్ర ఘత్వం విధీయతే. దాదేర్ ధాతోర్ఘః ఇత్యనేన ఝలి పదాంతే హకారస్య ఘత్వం ఘకారాదేశః ప్రాప్నోతి. కింతు పదం న ఇత్యతః న భవతి. పరమలిహౌ కోఢః ఇత్యనేన ఢత్వం ప్రాప్నోతి. సో ఎవ్రీవేర్ ఇన్ ద ఉత్తర పద వీ డు నాట్ డూ కార్యాస్ విచ్ డిపెండ్ ఆన్ ఇట్ బీయింగ్ అ పద. పదనిమిత్తకాని కార్యాణి ఉత్తర పదస్య న క్రియంతే. పూర్వపదస్య క్రియంతే, ఉత్తర పదస్య న క్రియంతే. కిమర్థం పరిభాషా విద్యతే ఉత్తర పదత్వే చ అపదాది విధౌ. ఉత్తర పదత్వే ప్రత్యయ లక్షణం న భవతి ఇత్యర్థః. యత్తు ప్రాచ ఉనీచ పదే ఇత్యతః పదే ఇతి అనువర్త్య అజాదేహే పదస్య ఇతి వ్యాఖ్యానాత్ నముట్న ఇతి ఉక్తం తదనేన ప్రత్యుక్తం. సో బై అ ప్రీవియస్ ఆథర్ పరమదండినౌ ఇత్యత్ర కుతో న నుటాగమః ఇతి పృష్టే ఉనీచ పదే ఇతి సూత్రమస్తి. తథా మండూక ప్లుత్య పదే ఇతి అనువర్తతే. సో వి టేక్ పదే as anuvratti and it is a visheshana, it is a vishesha to achi. Ajadehe padasya namohasvadachi namun iti uchyate. Ataha tatra padasya ajadehe padasya namudagamaha iti vyakhyanam kriyate. Atra tu paramadandin iti yadyapi padam tathapi au iti na padam. It is a pratyaya, not a pada. Ataha namut na bhavati iti uktam. తత్ అనేన ప్రత్యుక్తం. సో దట్ ఇస్ నాట్ రిక్వైర్డ్. ఐ మీన్ ద సర్క్యూటస్ రూట్ ఆఫ్ టేకింగ్ పదే అండ్ దెన్ థింకింగ్ ఇట్ విశేషణ ఇస్ నాట్ రిక్వైర్డ్ బికాస్ ఎనీవే దండిన్ ఇస్ ఆల్సో నాట్ అ పద. ద ఉత్తర పద ఇస్ నాట్ ట్రీటెడ్ యాజ్ అ పద. ఇహైవ నలోపం వారయితుం ఉక్తరీతేరేవ తేనాపి అనుసర్తవ్యత్వాత్. ఇన్ ద సేమ్ కేస్ పరమదండిన్ ఔ if dandin is treated as a pada, nalopah pratiparikantasya ityanena nalopah praptnoti. Nalopam varayitum uktarite reva. The same argument has to be used even by him. What? Saying that uttarapade uttarapadasvecha padadividhau. The same argument has to be resorted to prevent nalopa. When that is the case, the same thing can also be used for nudagama nishedha. Why use a different upaya? Because the same thing will hold good for both preventing nalopa and for preventing the agama. Samasuti iti agrimam sutram. Samo makarasya ruhu syat. Suti pare. This is the beginning of samskarta. Right? You have samu and karta. Samparibhyam karotav bhushane. Ityanena sut agamah bhavati. Samu skr karta. Ityasti. Idaniyam samaha makarasya rutvam bhavati. Sar skarta. Yes. So if you remember the prakriya, we have sar skarta. Tataha atrana nasika purvasya tuva ityanena sar skarta. Kriyate. Roho visargaha visarjaniyasya saha sa su su karta, and then we begin the series of dvitvas to end up with 108 forms. So samasuti is just the he says, what is the purpose of adding rutva here? You do sar karta and then you can directly do it as anuswara, samskarta. If you take just the plain form, we have samu skarta. Atra samskarta iti anuswara sadhaniyaha. We usually write samskarta as sa anuswara skarta. So for that, monuswara itene naiva siddhyati. Samu iti makaraha asti. Padam, mantam yat padam, tasya makarasya anuswara bhavati samskarta. Iti rupam siddhyati. We already have samskarta. For that, we don't need rutva. Yadyapi monuswarena siddham. Tathapi anunasikatva trisakaratva siddhyartham idam. So, this is to derive the other forms. One is for anunasika on akara. So, that will happen only if there is rutva. Atra anunasikaha. Atra nama ruprakarane, ruprakarane rohupurvasya anunasikaha. Sa ruskarta. Tataha saha. Tadrutvam asti, rutvasya visargaha, tata sakaraha. Sakara dvayam asti, tata eva dvitvena trisakaraha sadhaitum shakyate. Ataha, anusasikatva trisakarakatva siddhyartham idam. Atranunasikah purvasya tuva, iti agrimam sutram. Atra nama ruprakarane, roh purvasya anunasikaha vasyat, iti sutrartaha. So the one which precedes ru will get anunasika. Ayam adhikaraha vidhirva iti dvaitam. Now here there is a dilemma. Dvaita is two ways. So there are two options. Is it an adhikara or is it a vidhi? That is anena sutrena anunasikaha vidhiyateva. Asava agrima sutreshu adhikaratvena etatvikriyateva iti prashnaha. Adye atragrahanam anasthakam. If you are saying it is adhikara, then atra itina vaktavyam. Adhikaraha nama agrima sutreshu adhikriyate itrayo. Ityeva jnayate. So ruprakarane iti vaktavyam nasti. Atra ityeta dyartham. If you are taking it as an adhikara. Adhikara deva ruprakarana labhat. So because it is an adhikara, we can treat it as ruprakarana. Tadartham atragrahanam napekshyate. Tu shabdastu adhikara pakshe. On the other hand, the tu atra anunasikaha purvasya tu ityuchyate. Tu shabdastu adhikara pakshe parasmat karyenaha vishesha dyotanarthaha parasya nityam rutvam purvasya tu va anunasikaha. So the tu is useful if it is an adhikara. If it is an adhikara, atragrahanam vyartham. You need not say atra, because adhikara deva ruprakaranam labhyate. Tu shabdastu apekshyate. The tu is required to differentiate it from the sthani, that is that which is getting ritva. Parasya nityam ritvam purvasya tu vikalpena anunasikaha iti vishesha dyotanasaha. The tu is always to denote some distinction. So that is possible if it is an adhikara. Vidhivakshe vyarthaha. If this is a vidhi, then tu grahana is vyartha. Atra anunasikaha purvasya va. So here, purvasya anunasikaha vikalpena vidhiyate. Tu ityetat napekshate. Yatra karya dvayamasti. Ekasya rutvam vidhiyate, aparasya anunasikaha. Tatra vishesha dyotanartham tu shabdaha sarthakaha. So if the same thing is taken as an adhikara, say samasuti ityasti. Samaha suti rutvam bhavati. Purvasya tu va anunasikaha. So if you take it as an adhikara and associated with other vidhi sutras, then tu grahana helps in achieving the distinction between the nityam rutvam and purvasya tu vikalpena anunasikaha. But if this is a vidhi, if this is an independent vidhi, then the sutra just says ruprakarane purvasya vikalpena anunasikaha tu grahanam vyartham. So, adhikara pakshe atra grahanam vyartham, vidhi pakshe tu grahanam vyartham. Vagrahanam spashtartham. Vagrahanam tu ubhayatra vyartham. In any way, vagrahana is not required. Why? Anunasikat paronuswaraha iti jnapakadeva siddhehe. The next sutra is anunasikat paronuswaraha. It says, anunasikam vihaya roh purvasmat parasya anuswaraha. So it says, when there is no anunasika, there is anuswaragama. So that means that there is an option where there is no anunasika. If anunasika were nitya, then anunasikat paronuswaraha does not have any application. So anunasikat paronuswaraha applies only when there is no anunasika, which means that anunasika is optional. There is anunasika. If there is no anunasika, there is anuswaragama. Ataha vagrahanam spashtartham ubhayatra adhikara pakshepi vidipakshepi vagrahanam spashtartham anunasikat paraha iti jnapakadeva siddhehe. Nahi vikalpam vina anunasika bhava pakshaha iti sambhavati. If this is not vikalpa, then there is no paksha where there is no anunasika. And therefore, anunasika paronuswaraha cannot apply anywhere. Nahi vikalpam vina anunasika bhava pakshaha iti sambhavati. Idameva dhvanayitam vrittau tu veti shabdau noktau. So in vritti, that is kashika vritti. Dikshitar uses va. But in the Kashika Vritti, there is neither tu nor va. He just says, atra ruprakarane rohu purvasya anunasikaha. So it is treated as adhikara, sorry, it is treated as vidhi, and the tu and va are both removed. Okay, it is a swatantra vidhi, atra anunasikaha purvasya, atra ruprakarane purvasya anunasikaha bhavati. Vikalpena bhavati, into vikalpaha. Atra anunasikat paronuswaraha iti jnapakadeva siddhyati. Vagrahanam api napekshyate, tu grahanam api napekshyate. So this is treated as a vidhi, and therefore tu is not required, va is also not required. Agrivam sutram asti anunasikat paronuswaraha. Fourthaha anunasikam vihaya roho purvasmat paraha anuswaragamaha. Anuswara is an agama. Okay, just a second. Paul is giving us the thing from Kashika. Ita uttaram yasya sthane ruhu vidhiyate. He is taking it as an adhikara, not as the thing. Then it is not from the Kashika. I don't know what he is referring to. Kashika takes it as adhikara. Ita uttaram nama atra ityasya adhikaraha yasya sthane ruhu vidhiyate. Tah purvasya tu varanasya va anunasiko bhavati ityeta adhikratam veditavyam. It's very spashta. So sorry, I didn't see the Kashika. It says vrittau ತೂ ವೇದಿ ಶಬ್ದವನ್ನು ಹೋಗ್ತವು ದ ವ್ಯಾಖ್ಯಾನ ವಿಚಯ ಸೆಟ್ ಕಾಶಿಕಾದವು ಇತಿ ಸೊ ಅಸ್ಯೂಮ್ ದ ಕಾಶಿಕಾ ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ವಾ ಸೊ ದಿಸ್ ಇಸ್ ನಾಟ್ ರೆಫರಿಂಗ್ ಟು ದ ಕಾಶಿಕಾ ದನ್ ಇದಮೇವ ಧ್ವನಯಿತು ವೃತ್ತವು ತೂ ವೇದಿ ಶಬ್ದವನ್ನು ಹೋಗ್ತವು ಡಸ್ ನಾಟ್ ರೆಫರ್ ಟು ದ ಕಾಶಿಕಾ ಸಮದರ್ ವೃತ್ತಿ ಸೊ ದ ಕಾಶಿಕಾ ಟ್ರೀಟ್ಸ್ ಇಟ್ ಆಸ್ ಅಧಿಕಾರ ಇತ ಉತ್ತರಂ ಯಸ್ಯ ಸ್ಥಾನೆ ರುಹು ವಿಧೀಯತೆ ತತಃ ಪೂರ್ವಸ್ಯ ತು ವರ್ಣಸ್ಯ ವಾ ಅನುನಾಸಿಕೋ ಭವತಿ ಇತ್ಯೇತತ್ ಅಧಿಕೃತಂ ವೇದಿತವ್ಯಂ ಸೊ ಬಿಕಾಸ್ ಆಫ್ ಇಟ್ ಹಿ ಯೂಸಸ್ ದ ಟೂ ಇಸ್ ಯೂಸ್ಫುಲ್ ಇಫ್ ಇಟ್ ಇಸ್ ಅನ್ ಅಧಿಕಾರ ಸೊ ಹಿ ಟೇಕ್ಸ್ ಇಟ್ ಆಸ್ ಅನ್ ಅಧಿಕಾರ ಅಂಡ್ ಸೇಸ್ ತತಃ ರುಹು ವಿಧೀಯತೆ ಪೂರ್ವಸ್ಯ ತು ವಿಕಲ್ಪೇನ ಅನುನಾಸಿಕಃ ಭವತಿ ಯದಿತ ಊರ್ಧ್ವಂ ಅನುಕ್ರಮಿಷ್ಯಾಮಃ ತತ್ರ ಸೊ ವಾಟ್ ಕಮ್ಸ್ ಫಾರ್ವರ್ಡ್ ವಿಲ್ ಸೀ ಲೇಟರ್ ಓಕೆ So, he differs from Kashika. Dikshita definitely takes it as a vidhi. There is Purvasya Anunasikaha Vikalpena Bhavati. So, I'll again see which is the vritti that Dikshita refers to here. Okay, I'm sorry. I should have...
You're saying that it's not Kashika that Dikshita is referring to.
Yeah. Vrittau, tu veti shabdau noktau. Kashika uses both tu and va. So it is not, the vritti here is not the Kashika vritti. So okay. I'll see which is the other one which he refers to. So Anunasikas Parvanu Swaraha. The Sutartha says, Anunasikam Vihaya, Rohum Purvasmat Paraha. The Sutra says, Anunasikat Paraha. Sakshat Arthe Svikrate. Anunasikat paraha. After Anunasika, there is an Anuswara. Which does not make sense because, both Anuswara, Anunasika is in the Swara. So when the Swara itself is Anunasika, no point in adding another Anunasika Anuswara. Anuswara is a Nasika, right? It is a nasal tone which is added to Swaras. The Swara itself is nasal and you add Anuswara, it does not make sense. So, the Sutrartha is derived as Anunasikam Vihaya. Other than the case where there is Anunasika, there is Anuswara. Where do we add the Anuswara? Roho Purvasmat Paraha. After the letter which precedes Rutva. Okay. So, why this? The Sutrartha is sort of twisted. Katham Esha Sutrartha Labhyate. ಯಬ್ಲೋಪೆ ಪಂಚಮಿ ಇತ್ಯಾಹ ಅನುನಾಸಿಕಂ ವಿಹಾಯ ಯಬ್ಲೋಪೆ ಕರ್ಮಣ್ಯಧಿಕರಣೆ ಚ ಇತಿ ವಾರ್ತಿಕಂ ಅಸ್ತಿ ಕಾರಕ ಪ್ರಕರಣೆ ಪ್ರಾಸಾದಾತ್ ಪ್ರೇಕ್ಷತೆ ಹಿ ಸೀಸ್ ಫ್ರಮ್ ದ ಪ್ರಾಸಾದ ಫ್ರಮ್ ದ ಬಿಲ್ಡಿಂಗ್ ಫ್ರಮ್ ಸೇ ದ ಟಾಪ್ ಆಫ್ ದ ಬಿಲ್ಡಿಂಗ್ ಕಥಂ ತತ್ರ ಪಂಚಮಿ ಇತಿ ಪ್ರಶ್ನ ಯಬ್ಲೋಪೆ ಪ್ರಾಸಾದಂ ಆರುಹ್ಯ ಪ್ರೇಕ್ಷತೆ He climbs the building and sees. Prasadam aruhya. Aruhya iti lyabantam luptam. Tatra yat karma prasadam. Tasmat panchami vibhakti bhavati. Prasadat prekshate. Eva meva asanat vikshate. Asane upavishya vikshate. Asane upavishya. Tatra lyabantam asti. Lyabantasya lope. ತದಧಿಕರಣಸ್ಯ ಆಸನೆ ಇತ್ಯಸ್ಮಾತ್ ಪಂಚಮಿ ವಿಭಕ್ತಿ ಆಸನಾತ್ ವೀಕ್ಷತೆ ಸತ್ರಾಪಿ ಅನುನಾಸಿಕಾತ್ ಪರಃ ನಾಮ ಅನುನಾಸಿಕಂ ವಿಹಾಯ ಸೊ ಲಿವಿಂಗ್ ಅನುನಾಸಿಕ ಆರ್ ವೇರ್ ದೇರ್ ಇಸ್ ನೋ ಅನುನಾಸಿಕ ವಿಹಾಯ ಇತಿ ಲ್ಯವಂತಸ್ಯ ಲೋಪೆ ತತ್ ಕರ್ಮಣಃ ಅನುನಾಸಿಕಂ ಇತ್ಯಸ್ಯ ಪಂಚಮಿ ವಿಭಕ್ತಿ ಅತಏವ ಅನುನಾಸಿಕಾತ್ ಇತಿ ಲ್ಯವ್ಲೋಪೆ ಪಂಚಮಿ ಅನುನಾಸಿಕಂ ವಿಹಾಯ ಸೊ ಲಿವಿಂಗ್ ಕೇಸಸ್ where there is anunasika anuswara bhavati anuswara is given as an agama where do we add the anuswara agama if it is not after the anunasika how do we know the position of the anunasika so generally the position of anuswara generally if it is an agama we use titva kitva mitva for deciding the position so none of it is here this plain anuswara is given as an agama Where do we add the agama? It says, evam cha samsargavat viprayogasyapi visheshagapagati hetutvat avatsa aniyatam ityatra iva sambhavita anunasikya gunakaha eva upasthitatvad akangshitatvat cha avadhitvena sambadhyate it इत्यभिप्रेत्याः रोह पूर्वस्माद् इति अवधि वी रिक्वायर द अवधि दैट इज द वेयर डू वी एड वी रिक्वायर सम पोजिशन ऑफ रेफरेंस फॉर एडिंग सो विच इज द पोजिशन हाउ डू वी नो संसर्गवत् विप्रयोगस्यापि विशेषावदति हेतुत्वात् So, you see, wherever we don't know something, we have to assume something. There are several techniques that we use. Samsargaha, Viprayogaha, etc. We use whatever is associated or dissociated. Okay? Say, for example, he says, Avatsa aniyata. Avatsa, navidyate vatsa yasya sa. So, that which does not have a cough. She who does not, who is not along with the cough. So, without the cough, ityarthaha, avatsa aniyatam, bring her without the cough. Okay, ka iti nochyate, it does not specify who. Okay, bring her without the cough, bring a stri vyakti because it is avatsa, without the cough. So, who is brought? Avatsa aniyatam ityukte, ka aniyate, vatsa rahita, gaureva aniyate. We bring in a cow without the cough. Not just some woman without a calf or some other, female deer without a calf. So, avatsa, vatsa shabdena, when you are saying dissociating something from the calf, what is it that is usually found with the calf is the cow. Okay. So, that is visheshavagati. So, because avatsa, the negation itself also implies the usual association. The usual association is the cow comes along with the calf. So bring the cow without the calf. Ityarthe go shabdaha na prayoktavyaha. Go shabdam vinapi avatsa aniyata mityukte vatsarahita gaureva aniyate natu asambaddha kachit stri vyaktihi. Is there a question? Yogesh Mahode. प्रश्नः अस्ति वा न श्रूयते किमपि मेबी यू शुड जस्ट टाइप योर क्वेश्चन Well, please type in your question and look at it and answer. Samsargavat viprayogasya api visheshavagati hetutvat. Just like samsarga association, dissociation also helps us to know what was associated, what is usually associated. Vishesha avagati hetutvat. Avatsa aniyatam ityatra iva. So, just like in the case of avatsa aniyatam, sambhavita anunasikya gunakaha eva. So, here, what is the case here? You are saying, anunasikam vihaya anuswaraha. So, where there is no anunasika, there is anuswara. Yasya anunasika yogyata asti. That which has the yogyata for getting anunasika. Kasya anunasikaha bhavati. अत्र अनुनासिकः पूर्वस्य रोह पूर्वस्य अनुनासिक योग्यता अस्ति अस्मिन् प्रकरणे रूपप्रकरणे रोह पूर्वस्य अनुनासिकः विहितः यस्य अनुनासिक योग्यता अस्ति तस्मात् परस्यैव अनुस्वारः सो हि सेज अनुनासिकात् परः अनुस्वारः अनुनासिकं विहाय परः फॉलोइंग देयर इज अनुस्वार फॉलोइंग व्हाट द अवधि इज नॉट नोन नॉट मेंशन सो व्हाट कैन बी द अवधि Anunasikam vihaya anuswaraha. We are saying, where there is no anunasika, there is anuswara. Which means, in the absence of anunasika, there is anuswara. Like, the absence of vatsa implies implies a cow. The absence of anunasika implies that the avadhi is that which can get anunasika. Yasya anunasika yogyata asti, तस्मात् परस्यैव अनुस्वारागमः इति अवधिः ज्ञायते अतः अत्र किं क्रियते पूर्वसूत्रेण नाम अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन रोः पूर्वस्य अनुनासिकः कृतः. अत्र स एव अवधित्वेन स्वीक्रियते. सो द सेम् थिङ्ग् दट् इस् रोः पूर्वः इस् टेकन् अस् अवधि. दट् इस् वै द सूत्रार्थ सेस् रोः पूर्वस्मात् परः. कस्मात् परः इत्याकाङ्क्षायां रोः पूर्वस्मात् परः अनुस्वारागमः इत्युच्यते. एवं च संसर्गवत् विप्रयोगस्यापि विशेषावगतिहेतुत्वात् अवत्सानीयताम् इत्यत्र इव सम्भावित आनुनासिक्यगुणकः एव उपस्थितत्वात् आकाङ्क्षितत्वाच्च अवधित्वेन सम्बध्यते इत्यभिप्रेत्याह रोः पूर्वस्माद् इति. अनुस्वारागमः इति देन् इट् सेस् अनुनासिकं विहाय रोः पूर्वस्मात् परः अनुस्वार आगमः भवति. हौ डु वि नो अनुस्वार इस् एन् आगम? इट् केन् आल्सो बि एन् आदेश. हौ डु वि नो इट् इस् एन् आगम अट् आल्? यूश्वलि आगमस् आर् मार्क्ड् वित् टित् कित् आर् मित्. दट् इस् हौ वि ऐडेण्टिफै द आगम. जस्ट् से अनुस्वार. हौ डु वि नो इट् इस् एन् आगम? अनुस्वारागम इति. आगमत्वं च परशब्देन इव लभ्यते. So it is given by the parashabda. Anunasikat paraha anuswaraha. Paratvena bhavati. It is because it is an agama that the position is also being intended. Otherwise it would just have been shashti. I mean, here in this case it would have been roho. Whichever it is. Sthane adeshaha vidhiyate. If you just indicate the sthani, adesha will replace it. Since it is an agama, and since it does not have any other means of deciding its position, the word para is used. Purvam tu tabhyam aich ityatra purva shabdena aichoho iva iti bhavaha. In vyakaranaha vyakarana we have purvam tu tabhyam aich. Aich is given as the agama. Vya ityasti vaya iti bhavati. So there also पूर्वौ ऐच् इति उक्तत्वादेव आगमः इति ज्ञायते. अत्रापि परः इति उक्तत्वादेव आगमः इति ज्ञायते. आगमत्वञ्च परशब्देन इव लभ्यते. पूर्वोक्तदाभ्याम ऐच् इत्यतः इत्यत्र पूर्वशब्देन ऐचो एचोः इव सोरि ऐचोः इव इति भावः. कपल् आफ् क्वश्चन्स् हियर्. सो ल्यब्लोपे पञ्चमी. सो दट् वार्तिक इस् फौण्ड् इफ् यु गो टु द कारक प्रकरण आफ् द सिद्धान्त कौमुदी समवेर् इन् पञ्चमी विभक्ति देर् इस् दट् वार्तिक वेर् हि गिव्स् ल्यब्लोपे कर्मण्यधिकरणे च वार्तिक आफ्टर् प्रोबेब्लि अपादाने पञ्चमी. सो इफ् यु लुक् एट् द अपादाने पञ्चमी वित् दट् यु शुड् फैण्ड् दट् सूत्र. So one more question. Avatsa aniyatam ischyate tatra vatsa sadrasha vatsa bhinna iti narthova. So avatsa aniyatam, is it to bring a cow without the calf or to bring a cow which is not a calf, that is not a young cow but a grown up cow iti arthova iti prashnah tatu prakrana vashadeva jnayate. Okay. So that is you have to know the context where this has been used. Atra tu विप्रयोगस्य उदाहरणत्वेन दीयते. संयोगवत् विप्रयोग. विप्रयोग इस् डिसोसिएशन्. सो देर् इस् यूजुअलि द काफ् कौ इस् ब्राट् वित् द काफ्. सो अवत्स ब्रिङ्ग् इट् विथौट् द काफ्. सो द विप्रयोग इट् सेल्फ् इण्डिकेट्स् विशेषावगति. सिन्स् इट् इस् गिवन् एस् एन् एक्साम्पल् फार् दट् वि टेक् इट् एस् वत्सरहिता गौः. बट् इफ् इट् इस् जस्ट् अवत्स आनीयतां यु वुड् नीड् अ काण्टेक्स्ट् टु नो इफ् इट् इस् a grown up cow is intended or a cow without the calf. Any other questions? We'll stop here. Dhyayam dhyayam param brahma smaram smarangurorgirah siddhantakaumudi vyakhyam kurmah praudhamanoramam.